इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुरुषोत्तम शर्मा। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य प्रधानमन्त्री कृषक सम्मान निधेः 17 भागांशरूपेण 20,000 कोटिरूप्यकाणि लाभार्थिभ्यः प्रदत्तवान्। भारत अमेरिका देशयोः मध्ये महत्वपूर्णो दीयमान प्रौद्योगिकी विषये चर्चा जाता। देशद्वयं महत्वपूर्ण प्रौद्योगिक क्षेत्रेष् सहभागितां करिष्यतः। देशानाम् आर्थिक स्थितेः आकलनं कर्तृणा फिच इत्यनेन समवायेन वर्तमान वित्तवर्षाय भारतस्य सकल गृह्योत्पादस्य अनुमानं 7% समेध्य 7.2% कृतम्। भारतीय चलचित्र निर्मात्रे विनोद गनात्रा इत्यस्मै नेल्सन मण्डेला लाइफटाइम अचीवमेंट अवार्ड इति सम्मानः प्रदत्तः। अपि च तोमरक्षेपकः नीरज चोपड़ा अद्य फिनलैण्डस्य तुर्कु नगरे पावो नूरमी क्रीडांगणे विश्व एथलेटिक्स कॉन्टिनेंटल टूर इति स्पर्धायां प्रतिभागं करिष्यति। अथ वार्ताः विशदीकृत्य। प्रधानमन्त्री नरेन्द्र मोदी अद्य उत्तरप्रदेशस्य वाराणसी नगर्यां प्रधानमन्त्री किसान सम्मान निधि योजनान्तर्गतं 20,000 कोटिरूप्यकाणां 17तमं देयराशिं लाभार्थिभ्यः प्रदत्तवान्। देयराशेः धनं प्रत्यक्षतया 26,00,000+ लाभार्थि कृषकाणां वित्तकोषेष् सम्प्रेषितम्। एतस्मिन् कार्यक्रमावधौ श्रीमोदी स्वयं साहाय्य समूहानां 30,000+ महिलाभ्यः कृषि सखी इत्यस्यान्तर्गतं प्रमाणपत्राण्यपि वितरितवान्। प्रधानमन्त्री नरेन्द्र मोदी अद्य सायं 10:00 गंगा आरार्तिक्यां समुपस्थितो भविष्यति। अनन्तरं प्रधानमन्त्री काशी विश्वनाथ देवालये पूजां दर्शनं च करिष्यति। श्वः प्रातः प्रधानमन्त्री बिहारस्य राजगीरस्थले नालन्दायाः भग्नावशेषाणाम् अवलोकनार्थं गमिष्यति। तदनन्तरम् असौ नालन्दा विश्वविद्यालयस्य परिसरस्यापि उद्घाटनं विधास्यति। अत्रावसरे प्रधानमन्त्री तत्र एकां जनसभाम् अपि सम्बोधयिष्यति। राष्ट्रिय सुरक्षा परामर्शदः अजीत डोभालः नवदिल्ल्याम् अमेरिकीय समकक्षेण जैक सुलिवान इत्यनेन सह उदीयमान प्रौद्योगिकी क्षेत्रस्य द्वितीय उपवेशनस्य अध्यक्षतां कृतवान्। गतदिने आयोजिते उपवेशने अजीत डोभालः जैक सुलिवान च आगामि राजनीतिक प्रौद्योगिक अनुबन्धस्य दृष्टिकोणं निर्धारितवन्तौ। अमेरिकया पुनरेकदा उक्तं यत् अमेरिकीय सुरक्षा परामर्शदः जैक सुलिवान इत्यस्य भारत यात्राया देशद्वयस्य मिथः सुदृढ सहभागिता अतोऽपि प्रबला भविष्यति। अनेन समृद्ध हिन्द प्रशान्त क्षेत्रस्य निर्माणः भविष्यति। अमेरिकीय राष्ट्रपति निवासे वार्ताहरान् सम्बोधयन् राष्ट्रिय सुरक्षा संवाद परामर्शदः जॉन किर्वी अवोचत् यत् भारतम् अमेरिका च सर्वतो प्राचीनौ लोकतन्त्रराष्ट्रौ विद्येते। अपि च देशद्वयस्य मैत्री अप्रतिमा वर्तते। तेन अमेरिकायाः राष्ट्रिय सुरक्षा परामर्शदः भारत यात्रा विषये उक्तं यत् यात्रायाः उद्देश्यं देशद्वयस्य मध्ये प्रमुखक्षेत्राणां विस्तारः वर्तते। देशानाम् आर्थिकस्थितेः आकलनं कर्तृणा फेच इत्यनेन समवायेन वर्तमान वित्तवर्षाय भारतस्य सकल गृह्योत्पादः अर्थात् जीडीपी इत्यस्य वृद्धेः अनुमानं 7% समेध्य 17.2% कृतम्। फिच इत्यनेन समवायेन उपभोक्तृव्यये उत्कर्षं निवेशे च वृद्धिं निध्याय प्राक्तन अनुमाने संशोधनं विहितम् अस्ति। आकलनकर्तृसमवायेन अद्य प्रख्यापिते वैश्विकार्थिक आकलन प्रतिवेदने ऐषमः वित्तवर्षाय वैश्विकवृद्धिदरानुमानम् अपि समेधितम्। प्रतिवेदनस्य अनुसारं यूरोपीयार्थव्यवस्थायां वृद्धेः सम्भावना एधितास्ति। चीनदेशं विहाय विश्वस्य समेधमान विपणौ क्षेत्रीयावश्यकतायां वृद्धिः द्रष्टुं शक्यते। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। वैश्विको ख्यातिप्राप्त चलचित्र निर्मात्रे विनोद गनात्रा इत्यस्मै तदीय योगदानाय दक्षिणाफ्रीकायाः नेल्सन मण्डेला लाइफटाइम अचीवमेंट अवार्ड इति सम्मानः प्रदत्तः। असौ प्रथमः भारतीयः संवृत्तः येन अयं पुरस्कारः प्राप्तः। बालचलचित्रे उल्लेखनीय योगदानाय सप्तमे नेल्सन मण्डेला बालचलचित्र महोत्सवे सः अनेन प्रतिष्ठित पुरस्कारेण सम्मानितः। विनोद गनात्रा षड्विंशति राष्ट्रिय अन्ताराष्ट्रिय पुरस्कारैः सभाजितः अस्ति। दूरदर्शने प्रसारिताय बेंगन राजा इति बालक कार्यक्रमाय असौ जानकीनाथ गौड पुरस्कारेण अपि सम्मानितो वर्तते। केन्द्रीय गृहमन्त्रिणा अमितशाहेन उक्तं यत् केन्द्रप्रशासनं मणिपुरस्य समेषां जनानां सुरक्षां सुनिश्चेतुं पूर्णतया प्रतिबद्धमस्ति। मणिपुरे सुरक्षास्थितेः समीक्षायै नवदिल्ल्यां सम्पन्ने उच्चस्तरीयोपवेशने गृहमन्त्री अवोचत् यत् गृहमन्त्रालयः शीघ्रं नैतेयी अथ कुकी समूहाभ्यां सह संवादं करिष्यति येन उभयोः पक्षयोः मिथः मतभेदः अपाकरिष्यते। केन्द्रीय गृहमन्त्रिणा मणिपुरे सुखशान्ति प्रवर्तनाय रणनीतिकरूपेण केन्द्रीय बलानां नियुक्तिः सबलं प्रतिपादिता। तेनोक्तं यत् आवश्यकता विद्यते सति सुरक्षाबलानां नियुक्तौ वृद्धिमपि विधास्यते। श्रीशाहेन हिंसाचरणस्य रूपरेखा निर्माणकर्तृन् विरुध्य कठोरकार्याचरणस्य अपि निर्देशः प्रदत्तः। सममेव उक्तं यत् केन्द्रप्रशासनं मणिपुरे सुरक्षा दृढयितुं सक्रियरूपेण साहाय्यं विदधाति। प्रधानमन्त्री नरेन्द्रमोदी दशम अन्ताराष्ट्रिय योग दिवस समारोहे जूनमासस्य एकादशे दिने श्रीनगरे सहभागं करिष्यति। अस्मिन् वर्षे अन्ताराष्ट्रिय योग दिवसस्य विषयः वर्तते स्वस्मै समाजाय च योगः। केन्द्रीय आयुषमन्त्री प्रतापराव जाधवः अद्य नवदिल्ल्यां वार्ताहरान् सम्बोधयन् अवोचत् यत् विगतेष् वर्षेष् लक्षशो जनानाम् उत्साहपूर्ण सहभागितया समुदायेष् योगस्य प्रबल प्रभावः दृष्टः। अत्रावसरे तेन दृष्टबाधित जनानां सौविध्याय ब्रेल लिप्यां सामान्य योग प्रोटोकॉल पुस्तकस्य विमोचनं कृतम्। तेन योग विषये प्रोफेसर आयुष्मान कॉमिक इत्यस्य अपि लोकार्पणं कृतम्। इदं पुस्तकं बालेभ्य रुचिपूर्वकं योगाभ्यासे साहाय्यं करिष्यति। ऋतुविज्ञान विभागेन उत्तर पश्चिम पूर्व भारतस्य कतिपय क्षेत्रेष् निदाघतापे अपचितिः अनुमितास्ति। आकाशवाण्याः वार्ताः प्रभागेन सह संवादे केन्द्रीय ऋतुविज्ञान विभागस्य वैज्ञानिकः सोमासेन रॉयः उक्तवती यत् पश्चिम विक्षोभस्य अन्तर्गतं पंजाबस्य हरियाणायाः च क्षेत्रेष् चक्रवातेन उष्णतायां नैयून्यस्य सम्भावना विद्यते। तया उक्तं यत् आगामि द्वित्रि दिनेष् पश्चिमबंगालस्य उपहिमालयीय क्षेत्रे अथ देशस्य पूर्वोत्तरक्षेत्रेष् प्रबलवृष्टिः प्रवर्तिता भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी ग्रामपञ्चायत प्रमुखेभ्यः आग्रहं कृतवान् यत् ते योगस्य परिपक्वधान्यानां च प्रसारं कृत्वा समग्र स्वास्थ्यं जनान्दोलनत्वेन विधातुं कार्यं कुर्वन्तु। ग्रामप्रधानेभ्यः लिखिते पत्रे प्रधानमन्त्रिणा प्रोक्तं यत् पञ्चायत परिसरेष् विद्यालयेष् आंगनवाड़ी स्थानेष् सामुदायिक स्वास्थ्य केन्द्रेष् च योगाधारित कार्यक्रमाणां योजनं जनेभ्यः युवभ्यश्च स्थायीरूपेण चिन्तारहित जीवनशैलीं स्वीकर्तुं प्रेरयिष्यति। तोमरक्षेपस्पर्धायां ओलम्पिक विजेता विश्वविजेता च नीरज चोपड़ा अद्य फिनलैण्डस्य तुर्कनगरे पावोनुरामं क्रीडाङ्गणे विश्व एथलेटिक्स कॉन्टिनेंटल टूर इति स्पर्धायां प्रतिभागं करिष्यति।